अग्ने सविधम् जुडस्वेण स्वदे प्रदेहर्या धृताधीम् वर्ष्मन् पृथिव्यासुविधत्वे अह्नामूर्ध्वो भवसुक्रतो देव यज्ञा आदेवानामग्रया भेहया तु नरासंसो विश्वरूपेभिरश्वैः ऋतस्य पथा नमसामि येधो देवेभ्यो देवतामस्वशोदत् सस्वत्तममेरदे दूत्याय विष्मन्तो मनुष्यासो अग्निम् अकिष्ठैरस्मै सुवृतारथेना देवान्वक्षिणिषदेवहोता विप्रथदाम् देवजुष्टम् तिरश्चा दीर्घम् राध्मासुरभिभूत्वस्मे अहेलतामनसा देवबर्हिरिन्द्रज्येष्ठाङ्गुसतो चक्षिदेवान् दिवो वासानुस्पृशतावरीय पृथिव्या वामात्रया विश्रयध्वम् उसतेर्द्वारो महिला महद्भिर्देवम् रथम् रथयुर्धारयध्वम् देवी दिवो दुहितरासु शिल्पे वृषासानक्ता सदताम् नियोनौ आवाम् देवास उषते उषन्त पुरौ सीदन्तु सुभगे उपस्थे ऊर्ध्वो ग्रावा बृहदग्निः समिद्ध प्रियाधा मान्यदीतेरुपस्थे पुरोहिता मृत्विजा यज्ञे अस्मिन् विदुष्टा राद्रवे नमाय देधाम् तिस्रो देवेर्बरीदितम् वरीयासीदशग्रभावस्योनम् मनुष्वद्यज्ञम् सुधीता हवीम् शीला देवी घृतपादीजुषन्त देवस्त्वष्टर्गद्धाचारुत्वमानड्यदङ्गीरसामभावस्व चाभूः स देवानाम् पाथ उपप्रविद्वानुसंयक्षिद्रविनोदः सुरत्नाः वनस्पतेरसनया नियूया देवानाम् पाथ उपवक्षिविद्वान् सुधादिदेवः कृणवद्धवीम् शवदाम् द्यावा पृथिवी हवम् मे आग्नेव हवरो न विष्टये न इन्द्रम् दिवो मरुतो अन्तरिक्षात् शीलम् तु बर्हिर्विश्वायत्रा स्वाहा देवामृता मादयन्ताम्।